इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्यवार्ताः ईरान इजराइल देशयोः प्रक्षेपास्त्रप्रहाराणां विनिमयः निरन्तरं प्रचलति। ईरान देशस्य विदेशमन्त्री रशिया देशस्य शीर्षनेतृत्वेन सह वार्तालापार्थं मास्को नगरं सम्प्राप्तः। आयरलैंड देशे कनिष्क विमान विस्फोटस्य 44वें वर्षे केन्द्रीय मन्त्री हरदीप सिंह पुरी अन्ताराष्ट्रिय समुदायं आतंकवादं विरुध्य एकीकर्तुं आहूतवान्। कृतज्ञ राष्ट्रं डॉक्टर श्यामा प्रसाद मुखर्जी वर्यस्य बलिदान दिने श्रद्धांजलिम् अर्पयति। ईरान देशस्य होर्मुज जलसंधि बंधनस्य प्रस्तावात् परं वैश्विक तैल मूल्यानि वर्धन्ते। अपि च क्रिकेट क्रीडायां लीड्स नगरस्य हेडिंग्ले क्रीडांगणे प्रथम निकष क्रीडायाः चतुर्थ दिने इंग्लैंड देशं विरुध्य भारतीय दलं मध्यावकाशं यावत् त्रयाणां क्रीडकाणां हानौ 53.1% धावनांकान् समर्जयत। अथ वार्ताः विस्तरेण ईरान इजराइल देशयोः मध्ये संघर्षः नैरन्तर्येण प्रचलन्नस्ति। रूटर्स इत्यनुसारम् अद्य यरूशलम नगरं भयाक्लान्तमासीत् यतः तस्योपरि प्रक्षेपास्त्राणि दृष्टानि सुदूरञ्च विस्फोटाः अभवन्। तदनन्तरं इजराइल सैन्येन मध्य दक्षिण इजराइल देशे रक्तवर्णीया सञ्चेतना ध्वनिः प्रसारिता। ईरान देशस्य परमाणु सौकर्येषु अमेरिकायाः आक्रमणस्य प्रत्यक्ष प्रतिकाररूपेण विश्वस्य महत्वपूर्णतमेषु तैल वायु नौवहन मार्गेषु अन्यतमस्य होर्मुज जलसन्धिं बन्धयितुं प्रस्तावः ईरान देशस्य संसदेन सर्वसम्मत्या अनुमोदितः। परन्तु अन्तिमोपक्रमे ईरान इत्यस्य सर्वोच्च राष्ट्रिय सुरक्षा परिषदः अनुमोदनम् अपेक्षते। चीनदेशः ईरान इजराइल देशयोः शत्रुतां शमयितुम् आवाहनम् अकरोत्। अमेरिकादेशस्य सैन्याधिकारिणः सम्पूर्णे देशे सैन्यसमूहान् अत्यधिक जागरूकतायां स्थापयन्तः सन्ति। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन ईरान देशे शासनपरिवर्तनस्य सम्भावनेति विषये सङ्केतितमस्ति। ईरान देशस्य विदेशमन्त्री अब्बास अरहग्ची इत्येषः रशिया देशस्य शीर्षनेतृत्वेन सह उच्चस्तरीय संवादाय रशिया देशस्य राजधानीं सम्प्राप्तोस्ति। ईरान देशस्य दीर्घकालिक मित्रराष्ट्ररूपेण अस्मिन् क्षेत्रे महत्वपूर्ण शक्तिरूपेण च रशिया देशः अस्मिन् गहनतर संकटे संभाव्य मध्यस्थः इति मन्यते। भारतदेशः ईरान इजराइल देशयोर्मध्ये वर्धमान संघर्षे ईरान इजराइल देशाभ्यां भारतीय नागरिकान् प्रत्यावर्तयितुं ऑपरेशन सिंधु इत्यस्यान्तर्गतं बृहन्मात्रायां निर्वासन प्रयासं प्रचालयति। नवीनतम विकासे ईरान देशस्य मशाद नगरात् विशेष विमानेन गतरात्रौ 85+200 भारतीय नागरिकाः सुरक्षितरूपेण नवदेहली नगरं प्राप्तवन्तः। प्रत्यागतानां स्वागतं कुर्वन् विदेश राज्यमन्त्री पवित्र मार्गरिटा इत्यनेन दृढीकृतं यत् ईरान देशात् पुनः आनीतानां भारतीयानां संख्या अधुना 13.7% अभवत् इति।
Total number of evacuated Indian nationals from Iran stands now at 1,713, and we have scheduled 2-3 more flights from Iran for the next 2 days. And in the same way, we are in constant contact with all our Indian nationals residing there in Iran and Israel also.
तत्सम्बद्धे परिवर्तने इजराइल देशे जॉर्डन देशे च भारतीय नियोगैः संयुक्त प्रयासे 60+ भारतीय नागरिकाः निष्कासिताः। यदा इजराइल देशस्य वायुप्रदेशः निरुद्धः अभवत् तथा च अस्मिन् प्रदेशे वर्धमान संघर्षाद् वाणिज्यिक विमानयानानि च स्थगितानि, विदेशमन्त्रालयेन ईरान इजराइल देशयोः स्थितेभ्यः भारतीय नागरिकेभ्यः आग्रहः कृतः यत् तेहरान नगरस्य भारतीय दूतावासस्य आपत्कालीन सहायता केन्द्रमाध्यमेन नवदेहली नगरस्य अहर्निश चलायमानेन नियन्त्रण कक्षेण च सम्पर्कं स्थापयन्त्विति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज़ ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण सह केन्द्रीयमन्त्रिणा हरदीप सिंह पुरिणापि अष्टसदस्ययुतेन भारतीय प्रतिनिधिमण्डलेन सह अद्य आयरलैण्डदेशस्य कॉर्क नगरस्य अहकिस्ता नामके स्मारके कनिष्क विस्फोटस्य 24वें वर्षे विमान विस्फोट पीडितेभ्यः श्रद्धांजलिः दत्ता। 85-29वें वर्षस्य अस्मिन्नेव दिने कनाडादेशस्य मॉन्ट्रियल नगरात् लंदन नगरमार्गेण नवदेहली नगरं प्रति गच्छत् एयर इंडिया विमानं 82-100 आयरलैंड देशस्य तटात् दूरं वायौ एव विस्फोटितम्। आक्रमणे अस्मिन् 29-300 यात्रिकाः मृताः, तेषु भारतीयाः, कनाडादेशीयाः, अन्ये च विदेशिनः नागरिकाः, बालाश्च आसन्। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण उक्तं यत् आतंकवादः निकृष्टतमेषु कार्येषु अन्यतममस्तीति। अवसरेऽस्मिन् हरदीप पुरिणापि उक्तं यत् आसंसारं आतंकवादं विरुध्य एकता प्रदर्शितव्येति।
Terrorism and extremism remain a very real present-day threat, one that many of our countries know very well. What is often forgotten is that terrorist takes away the most fundamental of rights, the right to life. And whether the act is committed on 9/11 or 26/11 or Pahalgam, the effects are exactly the same. Innocent lives of people who have nothing to do with the differences that might emerge end up laying down their lives.
अद्य कृतज्ञ राष्ट्रं डॉक्टर श्यामा प्रसाद मुखर्जी वर्यस्य बलिदान दिवसावसरे तस्मै श्रद्धांजलिम् अर्पयति। प्रधानमन्त्रिणा नरेन्द्र मोदिना डॉक्टर मुखर्जी वर्यं प्रति श्रद्धांजलिः समर्पिता। सामाजिक प्रसार माध्यमे श्रीमोदी अलिखत् यत् डॉक्टर मुखर्जी वर्येण देशस्य अक्षुण्ण अखण्डतायै अतुल्य साहसेन सह सत्प्रयासाश्च प्रदर्शिताः। राष्ट्रनिर्माणार्थं तस्य अमूल्य योगदानं सर्वदा श्रद्धया स्मर्यते इत्यपि प्रधानमन्त्री अवदत्। डॉक्टर मुखर्जी वर्यः 53-59 वर्षे अस्मिन्नेव दिने श्रीनगरस्य कारागारे निगूढ परिस्थितौ राष्ट्राय हुतिम् अगच्छत्। भाजपेति दलस्य राष्ट्रिय अध्यक्षः जेपी नड्डाः नवदेहली नगरस्य दलमुख्यालये डॉक्टर मुखर्जी वर्याय पुष्पांजलिं समर्पितवान्। श्री नड्डाः अवदत् यत् डॉक्टर मुखर्जी वर्यः एकः स्वातन्त्र्य योद्धा, सामाजिक परिष्कारकश्च आसीत्, यो हि जम्मू कश्मीरस्य भिन्न विशिष्टतायाः विरोधम् अकरोदिति।
मोदी जी के नेतृत्व में और उनकी इच्छा शक्ति के कारण, हमारे गृह मंत्री जी की रणनीति के कारण धारा 370 धाराशाही हुई। आज श्यामा प्रसाद मुखर्जी जी को सच्ची श्रद्धांजलि यही है कि हम सब लोग एक देश में, एक निशान नीचे और एक विधान में आज काम कर रहे हैं।
राष्ट्रपति द्रौपदी मुर्मू इत्येषा अकथयत् यत् संसारोऽयं जलवायु परिवर्तन संकटं सम्मुखीकरोति तथा च सुस्थिरता इदानीं उद्घोषः नास्ति अपितु आवश्यकता वर्तते। नवदेहली नगरे भारतीय व्यय लेखाकार संस्थानस्य अस्य वर्षस्य राष्ट्रिय छात्र दीक्षांत समारोहं सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् छात्राः स्वकौशलैः राष्ट्रिय वाणिज्य जगति महत् परिवर्तनमानेतुं शक्नुवन्ति इति। सा अवोचत् यत् भारतीय अर्थव्यवस्थाम् अद्यतनीयस्य विश्वस्य प्रबलतमासु अर्थव्यवस्थासु अन्यतमा कर्तुं भारतीय व्यय लेखाकार संस्था महत्वपूर्णां भूमिकां निरवहदिति।
ICMAI has been a partner in the country's progress as it provides highly valuable support to policymakers, to central and state governments as well as to various organizations in developing cost-efficient strategies, systems and manuals.
प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य एकः लेखः प्रस्तुतः यस्मिन् गतैकादशवर्षेषु कृतानि महत्वपूर्णानि परिष्कारकार्याणि, भारतस्य खननक्षेत्रे जातोन्नतिः, सहकारिसङ्घवादेन च सह पारदर्शकशासनस्य समुल्लेखो वर्तते। केन्द्रीयमन्त्रिणः जी किशन रेड्डी इत्यस्य सामाजिकप्रसारमाध्यमे प्रसारितलेखे प्रतिक्रियां कुर्वन् श्रीमोदी लेखोऽयं प्रसारितवान्। अन्ते क्रीडावार्तायाम्, एंडरसन तेंदुलकर क्रिकेट निकषस्पर्धायां लीड्स नगरस्य हेडिंग्ले क्रीडांगणे क्रीड्यमानायाः द्वितीयपार्याः क्रीडायां चतुर्थे दिने भारतीय दलं त्रयाणां क्रीडकाणां हानौ 53-100 धावनांकान् समर्जितवत् इति वार्ताः।